इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। ओडिशा विधानसभायाः द्वितीय चरणीय मतदानं शान्तिपूर्णरीत्या प्रवर्तते। सामान्य लोकसभा निर्वाचनस्य अवशिष्ट चरणद्वयस्य कृते प्रचाराभियानं सजवं प्रवर्तते। प्रधानमन्त्री भाजपेति दलस्य वरिष्ठ नेता च श्रीनरेन्द्रमोदी ओडिशायां नैर्वाचनिक सभां सम्बोधयति। ईरान देशस्य राष्ट्रपतिः इब्राहिम रईसी, विदेशमन्त्री होसेन आमीर अब्दुल्लाहिया च उदग्र यान दुर्घटनायां निहतौ। प्रधानमन्त्रिणा मोदिना च अस्मिन् शोककाले भारतं ईरानेन सह अस्तीति उक्तम्। अपि च भारतस्य दीप्ति जीवनजी चतुश्शत मीटरात्मक विशिष्ट क्रीडकानां धावनस्पर्धायां विश्वकीर्तिमद् विखण्ड्य स्वर्णपदकं विजितवती। आयोजनमिदं जापानस्य कोबे नगरे प्रचलति। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य शेषद्वय चरणस्य प्रचारः पूर्णगत्या प्रचलति। सर्वेषां दलानां वरिष्ठ नेतारः विभिन्नेषु राज्येषु प्रचारं कुर्वन्ति, यत्र मतदानं भवितव्यमस्ति। प्रधानमन्त्री भाजपायाः वरिष्ठ नेता च नरेन्द्रमोदी अद्य ओडिशा पश्चिम बंगयोः बहुविधाः सभाः करोति। ओडिशायां श्रीमोदी अंगुलकटक नगरे जनसभाः सम्बोधितवान्। सः अवदत् यत् कटक क्षेत्रं भारतस्य प्राचीनतमसु विद्यमान नगरेषु अन्यतमम् अस्ति, आधुनिक शिक्षायाः केन्द्रं च अस्ति। मोदीवर्यः अवदत् यत् ओडिशायाः जनाः प्राकृतिक संसाधनैः समृद्धाः सन्तोऽपि दरिद्रतया पीडिताः सन्ति। सश्च आरोपितवान् यत् बीजू जनता दल शासनेन राज्यस्य खानिज्यं संस्कृतिश्च सुरक्षिता नास्ति। सः नवीन पटनायक सर्वकारस्य आलोचनां कुर्वन् उक्तवान् यत् सः चतुर्विंशति वर्षीये शासनकाले कृषकाणां यूनाञ्च कल्याणाय किमपि विशिष्टं पदोत्थापनं न कृतवान् इति। पूर्वं प्रातःकाले प्रधानमन्त्री मोदी पवित्रे पुरी नगरे आध्विक प्रचाराभियानं समायोजितवान्। ओडिशायाः मुख्यमन्त्री तथा बीजू जनता दलस्य अध्यक्ष नवीन पटनायकः अद्य सायं यावत् राज्ये बृहत् आध्विक प्रचाराभियानेन सह जनसभानां श्रृंखलां च प्रचालयन् अस्ति। भाजपायाः वरिष्ठ नेता अमित शाह अद्य हरियाणा प्रदेशस्य करनाल हिसारयोः सभाम् अकुर्वत्। उत्तरप्रदेशस्य मुख्यमन्त्री तथा भाजपायाः वरिष्ठ नेता योगी आदित्यनाथश्च चण्डीगढे सभां सम्बोधितवान्। समाजवादी पार्टीति दलप्रमुखः अखिलेश यादवः उत्तरप्रदेशस्य डोमरियागंज संतकबीरनगरयोः जनसभाः सम्बोधितवान्। सः प्रतिज्ञापितवान् यत् यदि मतदानं क्रियते तर्हि इण्डी संघीय सर्वकारः यूनां कृते त्रिंशल्लक्षं वृत्तयः प्रदास्यति, तथा च अग्निवीर योजनायाः समाप्त्यर्थम् अपि कार्यं करिष्यति। लोकसभा निर्वाचनस्य अद्य पञ्चमचरणीय मतदानं प्रायशः शान्तिरीत्या सम्पन्नम्। अस्मिन् चरणे द्वयोः केन्द्रशासित प्रदेशयोः अपि च षड् राज्यानां एकोनपञ्चाशत् लोकसभाक्षेत्रेभ्यः मतदानम् अभवत्। पञ्चम चरणेऽस्मिन् उत्तरप्रदेशस्य चतुर्दश आसनेभ्यः, महाराष्ट्रस्य त्रयोदश आसनेभ्यः, पश्चिमबंगालस्य सप्तासनेभ्यः, बिहार ओडिशा राज्ययोः प्रत्येकं पञ्च आसनेभ्यः, झारखण्डस्य आसनत्रयाय, जम्मूकश्मीर लद्दाखयोः च प्रत्येकं एकैकाय लोकसभासनाय मतदानं जातम्। ओडिशाराज्येऽपि अद्य द्वितीये चरणे पञ्चत्रिंशत् विधानसभाक्षेत्रेभ्यः मतदानम् अभवत्। अस्मिन् चरणे पञ्चनवत्यधिक षड्शतं प्रत्याशिनः निर्वाचन समराङ्गणे सन्ति। चरणेऽस्मिन् प्रमुख प्रत्याशिष् केन्द्रीय मन्त्रिणः भारतीय जनता पार्टीति दलस्य वरिष्ठ नेतारश्च सन्ति, येष् राजनाथ सिंह, स्मृति ईरानी, पीयूष गोयलः, कांग्रेसस्य राहुल गांधी, नेशनल कांफ्रेंस इत्यस्य उमर अब्दुल्ला, लोक जनशक्ति पार्टीति दलस्य चिराग पासवानोऽपि वर्तते। द्वात्रिंशत् उत्तर सप्तशताधिक चतुर्नवति सहस्रेषु मतदानकेन्द्रेषु सप्तचत्वारिंशदुत्तर नवलक्षाधिकाः अधिकारिणः नियोजिताः सन्ति। मतदानकेन्द्रेष् पेयजल प्रसाधन सुबाह्य सन्दच्छाया इत्यादय प्रबन्धा कृता सन्ति येन हि मतदातार सुलभतया मतदानं कर्तुं शक्नुवन्ति। आहत्य अद्यतनीये मतदाने पञ्चवादनं यावत् सप्तपञ्चाशदुत्तर प्रतिशतं मतदानम् अभवत्। पश्चिमबंगाले त्रिसप्तति, लद्दाखे सप्तषष्ठ्यधिकम्, झारखण्डे द्विषष्ठि प्रायः, ओडिशायाम् एकषष्ठि प्रतिशतम्, उत्तरप्रदेशे षड्पञ्चाशत्, जम्मूकश्मीरे चतुःपञ्चाशत्, बिहारे द्विपञ्चाशत् अधिकम्, महाराष्ट्रे च एकोनपञ्चाशत् प्रतिशतं मतदानं जातम्। ईरान देशस्य राष्ट्रपतिम् इब्राहिम रईसी इत्यमुम् अपि च वरिष्ठाधिकारिणः च नियमानम् उदग्र विमानं ह्यः दुर्घटनाग्रस्तम् अभवत्। ईरानदेशस्य सर्वकारीय वार्ताभिकरणेन इरना इत्यनेन अस्याः वार्तायाः पुष्टि कृता। अस्यां दुर्घटनायाम् ईरानस्य राष्ट्रपतिना सह विदेशमन्त्री अपि मृत्युमुपगतौ। अवधेयं वर्तते यत् राष्ट्रपतिः रईसी इत्येषः अजरबैजान इत्यस्य शिम्नः समीपम् एकस्य जलबन्धस्य उद्घाटन समारोहात् प्रत्यागच्छन् आसीत्। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन उक्तं यत् ईरानस्य राष्ट्रपतिसनः डॉ सैयद इब्राहिम रईसी इत्यस्य दुःखास्पदं निधन विषयं ज्ञात्वा सः अतीव दुःखितः आहतश्च अभवद् इति। सामाजिक प्रसार तन्त्रजाले प्रदत्त सन्देशे श्रीमोदी अवदत् यत् भारत ईरान द्विपक्षीय सम्बन्धं सुदृढं कर्तुं तस्य योगदानं सर्वदा स्मर्यते। प्रधानमन्त्री उक्तवान् भारतम् अस्मिन् शोककाले ईरानेन सह अस्ति इति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। सर्वोच्च न्यायालयेन अद्य भारतीय दण्ड संहिता आपराधिक दण्ड संहिता इत्येतयोः साक्ष्य विधेः स्थाने सद्यः एव निर्मितानाम् आपराधिक विधीन् विरुध्य आवेदिता जनहित याचिका पीआईएल इति विचाराय अस्वीकृता। आरम्भे न्यायाधीशः बेला एम त्रिवेदी इत्यस्याः अध्यक्षतायाम् अवकाशपीठः याचिकाकर्तां व्यक्तिगतरूपेण अकथयत् यत् याचिकेयं निरस्तीकरणयोग्या अस्तीति। न्यायमूर्तेः पंकज मिथलस्य पीठेन अपि उक्तं यत् जनहित याचिकेयम् अतीव आकस्मिकतया आपत्तिपूर्णा च अभ्यर्थिता अस्ति। जनहित याचिकायाम् उक्तमासीत् यत् भारतीय न्याय संहितायां भारतीय साक्ष्य अधिनियमे भारतीय नागरिक सुरक्षा संहितायां च अनेके दोषाः विसंगतयश्च सन्ति इति। बनारस हिन्दू विश्वविद्यालयस्य शोधपत्रिकायां प्रकाशित लेख विषये भारतीय आयुर्विज्ञान अनुसन्धान परिषदा आईसीएमआर इत्यनेन उक्तं यत् कोवैक्सीन इत्यस्य दुष्प्रभाव विषये अध्ययन संबंधितः लेखः भ्रामकः अस्ति, अतः विषयेऽस्मिन् आईसीएमआर इत्यस्य भिन्ना मान्यता अस्ति इति। एकस्मिन् वक्तव्ये आईसीएमआर इत्यनेन उक्तं यत् आईसीएमआर अनेन अध्ययनेन सह सम्बन्धः नास्ति, शोधार्थं च कथमपि तथ्यात्मकम् आर्थिकं च समर्थनम् अपि न दत्तवान् इति। आईसीएमआर इत्यस्य महानिदेशकेन डॉ राजीव बहल इत्यनेन पत्रस्य लेखका सम्पादकौ पत्रं विलिख्य निर्दिष्टो यत् आईसीएमआर इत्यस्य प्रमाणिकताम् अविधायिकां मान्यतां तत्क्षणं लेखात् अपसारयन्तु इति। विंशति वर्षीया दीप्ति जीवनजी इति महिलानां 400 मीटर परिमितस्य प्रतिस्पर्धायां विश्वकीर्तिमत् भग्नीकृत्य अद्य जापान देशस्य कोबे नगरे विश्व पैरा एथलेटिक्स प्रतियोगितायां प्रथमं स्वर्णपदकं समर्जितवती इति वार्ताः।